एवं वर्षासु विहितं तपःप्रकारं उक्त्वा सम्प्रति हेमन्ते तपश्चरणप्रकारं आह
निनाय सात्यन्तहिमोत्किरानिलाः सहस्य रात्रीरुदवासतत्परा परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती
निनायेति सा पार्वती उत्किरन्ति क्षिपन्तीत्युत्किराः इगुपदज्ञा इत्यादिना कः अत्यन्तम् हिमानाम् उत्किराः अनिलाः यासुताः सहस्यरात्रीः पौषरात्रीः पौषे तैषसहस्यौ द्वौ इत्यमरः उदके वासः उदवासः पेशं वासवाहनधिषु च इत्युदादेशः उदवासे तत्परा आसक्ता तथा परस्परम् आक्रन्दिनि अन्योन्यम् आक्रोशिनि पुरः अग्रे वियुक्ते विरहिणि वियोगम् प्राप्त इति यावत् चक्रवाकी च चक्रवाकश्च चक्रवाकौ तयोः चक्रवाकयोः मिथुने द्वन्द्वे कृपावती सती निनाय दुःखिषु कृपालुत्वम् महताम् स्वभाव इति चक्रवाकमिथुने कृपा न तु कामितयेति वाच्यानवकाशः अप्सु वासस्तु हेमन्ते क्रमशो वर्धयेत्तपः इति मनुः
मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना तुषारवृष्टिक्षतपद्मसम्पदाम् सरोजसन्धानमिवाकरोदपाम्
मुखेनेति सा पार्वती निशि रात्रौ पद्मवत् सुगन्धिना सुरभिणा गन्धस्येत् इत्यादिना इकारः प्रवेपमानः कम्पमानः अधरः ओष्ठः एव पत्रम् दलम् तेन शोभत इति तथोक्तेन मुखेन तुषारवृष्ट्या तुहिनवर्षेण क्षताः नाशिताः पद्मसम्पदः यासाम् तासाम् अपाम् सरोजसन्धानम् पद्मसङ्घट्टनम् अकरोदिव इत्युत्प्रेक्षालङ्कारः पद्मान्तरम् तुहिनेन उपहन्यते तन्मुखपद्मम् तु न तथेति व्यतिरेकालङ्कारः व्यज्यत इत्युभयोः सङ्करः
स्वयम् विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः तदप्यपाकीर्णमतः प्रियम् वदाम् वदन्त्यपर्णेति च ताम् पुराविदः
स्वयमिति स्वयम् विशीर्णानि स्वतश्च्युतानि ध्रुवपर्णान्येव वृत्तिः जीवनम् यस्य तस्य भावः तत्ता तपसः परा काष्ठा परमुत्कर्षो हि काष्ठोत्कर्षे स्थितौ दिशि इत्यमरः तया देव्या पुनः तत्पर्णवर्तनम् अपि अपाकीर्णम् अपाकृतम् अतः पर्ण अपाकरणात् हेतोः प्रियम् वदतीति प्रियम् वदा ताम् प्रियवशे वदः खच् इति खच् प्रत्ययः अरुर्द्विषदजन्तस्य मुम् इति मुमागमः ताम् पार्वतीम् पुराविदः पुराणज्ञाः तपःकरणसमये अविद्यमानम् पर्णभक्षणम् यस्याः सा अपर्णा इति वदन्ति च नामान्तरसमुच्चयार्थः चकारः अत्र अपर्णाम् इत्यपपाठः इति शब्दाभिहिते द्वितीयानुपपत्तेः यथाह वामनः निपातेनापि अभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात् इति स्वयं प्रियंवदाः परेषामपि प्रियवादभाजनानि भवन्तीति भावः
मृणालिका पेलवमेवमादिभिः व्रतैस्वमङ्गम् ग्लपयन्त्यहर्निशम् तपःशरीरैः कठिनैरुपार्जितम् तपस्विनाम् दूरमधश्चकारसा
मृणालिकेति मृणालिकापेलवम् पद्मिनीकन्दकोमलम् स्वम् स्वकीयम् अङ्गम् शरीरम् एवम् उक्तप्रकारतोयाग्निमध्यवासव्रतम् आदिः येषाम् तैः व्रतैः अहश्च निशा च अहर्निशम् समाहारे द्वन्द्वैकवद्भावः अत्यन्तसंयोगे द्वितीया ग्लपयन्ती कर्षयन्ती सा पार्वती कठिनैः क्लेशसहैः इत्यर्थः शरीरैः उपार्जितम् सम्पादितम् तपस्विनाम् ऋषीणाम् तपः दूरम् अत्यन्तम् अधश्चकार तिरश्चकार अतिशिष्ये इत्यर्थः तपस्विभिः अपि एवम् तपः कर्तुम् न शक्यते इति तात्पर्यार्थः
अथाजिनाषाढधरः प्रगल्भवाक् ज्वलन्निव ब्रह्ममयेन तेजसा विवेश कश्चिज्जटिलस्तपोवनम् शरीरबद्धः प्रथमाश्रमो यथा
अथेति अथ अनन्तरम् अजिनम् कृष्णमृगत्वक् आषाढः प्रयोजनम् अस्येत्याषाढः पालाशदण्डः पालाशो दण्ड आषाढः इत्यमरः विशाखाषाढात् अण् मन्थदण्डयोः इत्यण्प्रत्ययः तयोः धरः तथोक्तः प्रगल्भवाक् प्रौढवचनः ब्रह्ममयेन वैदिकेन तेजसा ब्रह्मवर्चसेनेत्यर्थः ज्वलन्निव स्थितः इव शब्दः निर्धारणार्थः कश्चित् अनिर्दिष्टो जटिलो जटावान् ब्रह्मचारीति शेषः पिच्छादित्वात् इलच् प्रत्ययः शरीरबद्धः बद्धशरीरः शरीरवान् इत्यर्थः आहिताग्न्यादिषु पाठात् साधुः प्रथमाश्रमः यथा ब्रह्मचर्याश्रम इव यथाशब्दः इवार्थे तपोवनम् देव्या इति शेषः विवेश प्रविष्टवान्
तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती भवन्ति साम्येऽपि निविष्टचेतसाम् वपुर्विशेषेष्वतिगौरवाः क्रियाः
तमिति अतिथिषु साध्वी आतिथेयी पथ्यतिथि इत्यादिना ढञ् प्रत्ययः टिड्ढाणै इत्यादिना ङीप् पार्वती तम् ब्रह्मचारिणम् बहुमानपूर्वया बहुमानः पूर्वो यस्यास्तया गौरवपूर्वया इत्यर्थः सपर्यया अर्चया सपर्यार्चार्हणाः समाः इत्यमरः प्रत्युदियाय प्रत्युज्जगाम कथम् समानेऽपि तस्याः तादृशी प्रतिपत्तिः अत आह साम्ये सत्यपि निविष्टचेतसाम् स्थिरचित्तानाम् वपुर्विशेषेषु व्यक्तिविशेषेषु अतिशयितम् गौरवम् यासु ताः अतिगौरवाः अतिगौरवसहिताः क्रियाः चेष्टाः भवन्ति प्रवर्तन्ते इत्यर्थः साधवः न साम्याभिनिवेशिनः इति भावः
विधिप्रयुक्ताम् परिगृह्य सत्क्रियाम् परिश्रमम् नाम विनीयचक्षणम् उमां सपश्यन् ऋजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः
विधीति सः ब्रह्मचारी विधिना प्रयुक्ताम् अनुष्ठिताम् सत्क्रियाम् पूजाम् परिगृह्य स्वीकृत्य क्षणम् परिश्रमम् विश्रामम् च विनीय नाम नामेत्यपरमार्थे अथ उमाम् ऋजुनैव विलासरहितेनैव चक्षुषा पश्यन् अनुज्झितक्रमः अत्यक्त उचित परिपाटीकः सन् वक्तुम् प्रचक्रमे प्रारेभे
अपि क्रियार्थम् सुलभम् समित्कुशम् जलान्यपि स्नानविधि क्षमाणिते अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यम् खलु धर्मसाधनम्
अपीति अत्र अपि शब्दः प्रश्ने क्रियार्थम् होमादिकर्मानुष्ठानार्थम् समिधश्च कुशाश्च समित्कुशम् जातिरप्राणिनाम् इति द्वन्द्वैकवद्भावः सुलभम् अपि सुलभम् क्वचित् जलानि ते तव स्नानविधिक्षमाणि स्नानक्रियायोग्यानि अपि कच्चित् किञ्च स्वशक्त्या निजसामर्थ्यानुसारेण तपसि प्रवर्तसे अपि देहम् अपीडयित्वा तपश्चरसि कच्चिदित्यर्थः युक्तम् च नामैतत् खलु यस्मात् शरीरम् आद्यम् धर्मसाधनम् धर्मस्तु कायेन वाचा बुद्ध्या धनादिना च बहुभिः साध्यते तेषु च वपुरेव मुख्यम् साधनम् सति देहे धर्मार्थकाममोक्षलक्षणाः चतुर्वर्गाः साध्यन्ते अत एव सततम् आत्मानमेव गोपायीत इति श्रुतिः अयथाबलमारम्भो निदानम् क्षयसम्पदाम् इति भावः
अपि त्वदावर्जितवारिसम्भृतम् प्रवालमासाम् अनुबन्धिवीरुधाम् चिरोज्झितालक्तकपाटलेन ते तुलाम् यदारोहति दन्तवाससा
अपीति त्वया आवर्जितेन सिक्तेन वारिणा सम्भृतम् जनितम् आसाम् वीरुधाम् लतानाम् प्रवालम् पल्लवम् अनुबन्धि अपि अनुस्यूतम् किम् यत् प्रवालम् चिरोज्झितः चिरकालत्यक्तः लाक्षारागः येन तत् तथापि पाटलम् स्वभावरक्तमित्यर्थः तेन चिरोज्झितालक्तकपाटलेन ते तव दन्तवाससा अधरेण ओष्ठाधरौ तु रदनच्छदौ दशनवाससी इत्यमरः तुलाम् साम्यम् आरोहति गच्छतीत्यर्थः अत्र तुलाशब्दस्य सादृश्यवाचित्वात् तद्योगेऽपि तुल्यार्थैरतुलोपमाभ्याम् इति न तृतीया प्रतिषेधः तत्र सूत्रे सदृशवाचिन एव ग्रहणात् इति
अपि प्रसन्नम् हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु य उत्पलाक्षिप्रचलैर्विलोचनैः तवाक्षि सादृश्यमिव प्रयुञ्जते
अपीति करस्थान दर्भान प्रणयेन स्नेहेन अपहरन्तीति ते तथोक्तेषु सापराधेष्विति भावः करस्थदर्भप्रणयापराधिषु इति पाठे दर्भाणां प्रणयेन प्रार्थनया अपराधिषु हरिणेषु विषये ते मनः प्रसन्नम् अपि न क्षुभितम् किम् सापराधेष्वपि न कोपितव्यम् तपस्विभिः इति भावः हे उत्पलाक्षि ये हरिणाः प्रचलैः चञ्चलैः विलोचनैः नेत्रैः तव अक्षिसादृश्यम् प्रयुञ्जते इव अभिनयन्ति इव प्रसन्नत्वात् मृगनेत्राणि त्वन्नयनाभ्याम् साम्यम् उपयान्तीति भावः उत्पलक्षेपचलैरिति पाठान्तरे उत्पलकम्पचलैः भावानयनेन द्रव्यानयनमिति न्यायेन क्षिप्यमाणोत्पलचलैः इत्यर्थः
यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारितद्वचः तथा हि ते शीलमुदारदर्शने तपस्विनामप्युपदेशताम् गतम्
यदिति हे पार्वती रूपं सौम्याकृतिः पापवृत्तये पापाचरणाय न भवतीति यदुच्यते लोकैरिति शेषः तद्वचः न व्यभिचरति न स्खलतीत्यव्यभिचारि सत्यम् यत्राकृतिस्तत्र गुणाः न सुरूपाः पापसमाचराः भवन्ति इत्यादयो लोकवादाः न विसंवादम् आसादयन्तीत्यर्थः किमिति ज्ञायते तथा हि हे उदारदर्शने आयताक्षि सुरूपे इत्यर्थः अथवा उन्नतज्ञाने विवेकवतीत्यर्थः ते तव शीलं सद्वृत्तं शीलं स्वभावे सद्वृत्ते इत्यमरः तपस्विनाम् अपि उपदिश्यते अनेनेत्युपदेशः प्रवर्तकं प्रमाणं तत्ताम् उपदेशताम् गतं प्राप्तम् मुनयोऽपि त्वां वीक्ष्य स्ववृत्ते प्रवर्तन्त इति भावः
विकीर्ण सप्तर्षिबलिप्रहासिभिः तथा न गाङ्गैः सलिलैर्दिवस्च्युतैः यथा त्वदीयैश्चरितैरनाविलैः महीधरः पावित एष सान्वयः
विकीर्णेति एष महीधरः हिमवान् सप्तचते ऋषयश्च सप्तऋषयः दिक्संख्ये संज्ञायाम् इति समासः विकीर्णैः पर्यस्तैः सप्तऋषीणाम् सम्बन्धिभिः बलिभिः पुष्पोपहारैः प्रहसन्ति ये तथोक्तैः दिवः अन्तरिक्षात् च्युतैः गाङ्गैः सलिलैः तथा न पावितः अनाविलैः अकलुषैः त्वदीयैः चरितैः यथा सान्वयः सपुत्रपौत्रः पावितः पवित्रीकृतः
अनेन धर्मः सविशेषमध्यमे त्रिवर्गसारः प्रतिभाति भाविनी त्वया मनो निर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते
अनेनेति हे भाविनि प्रशस्ताभिप्राये अनेन कारणेन धर्मः सविशेषम् सातिशयम् अद्य मे त्रयाणाम् धर्मकामार्थानाम् वर्गः त्रिवर्गः त्रिवर्गो धर्मकामार्थैः चतुर्वर्गः समोक्षकैः इत्यमरः तत्र सारः श्रेष्ठः प्रतिभाति यद्यस्मात् कारणात् मनसः निर्विषयौ अर्थकामौ यस्याः तया त्वया एको धर्मः एव प्रतिगृह्य स्वीकृत्य सेव्यते यत्त्वया अर्थकामौ विहाय धर्म एव अवलम्बितः अतः सर्वेषाम् नः सश्रेयानिति प्रतिपद्यते इत्यर्थः सम्प्रति मनोरथम् जिज्ञासुः प्रस्तौति
प्रयुक्तसत्कारविशेषमात्मना न माम् परम् सम्प्रतिपत्तुमर्हसि यतः सताम् सन्नतगात्रि सङ्गतम् मनीषिभिः साप्तपदीनमुच्यते
प्रयुक्तेति आत्मना त्वया प्रयुक्तः कृतः सत्कारविशेषः पूजातिशयः यस्य तम् माम् परम् अन्यम् सम्प्रतिपत्तुम् अवगन्तुम् नार्हसि हे सन्नतगात्रि सन्नताङ्गि अङ्गगात्रकण्ठेभ्यः इति वक्तव्यात् ङीप् यतः कारणात् मनसः ईशिभिः मनीषिभिः विद्वद्भिः शकन्ध्वादित्वात् साधुः सताम् सङ्गतम् सख्यम् सप्तभिः पदैः आपद्यते इति साप्तपदीनम् सप्तपदोच्चारणसाध्यम् उच्यते तच्च आवयोः त्वत्कृतसत्कारप्रयोगादेव सिद्धमित्यर्थः साप्तपदीनम् सख्यम् इति निपातनात् साधु
अतोऽत्र किञ्चिद्भवतीम् बहुक्षमाम् द्विजातिभावादुपपन्नचापलः अयम् जनः प्रष्टुमनास्तपोधने न चेद्रहस्यम् प्रतिवक्तुमर्हसि
अत इति हे तपोधने अतः सख्याद्धेतोः अत्र प्रस्तावे बहुक्षमाम् बहूक्तिसहाम् यद्वा क्षमावतीम् भवतीम् त्वाम् द्विजातिभावात् ब्राह्मणत्वात् उपपन्नचापलः सुलभधार्ष्ठ्योऽयम् जनः स्वयमित्यर्थः किञ्चित् प्रष्टुम् मनः यस्य सः किञ्चित् प्रष्टुमनाः प्रष्टुकामः तुम् काममनसोरपि इति मकारलोपः रहसि भवं रहस्यं गोप्यं न चेत् प्रतिवक्तुमर्हसि